अस्तु, गतसप्ताहे सर्वव्यवहारहेतुर्गुणः ज्ञानं बुद्धिः इति लक्षणं वा लक्षणवाक्यं पठितम्। विषयानुकूलव्यवहारस्य कारणं ज्ञानम् इति तस्य प्रतिपादनम्। अत्र कर्मधारे समासः एव आप्तः, यतोहि षष्ठी तत्पुरुषेण सर्वस्य व्यवहारहेतुः ज्ञानम् इति भवति। तेन कश्चन दोषः उत्पद्यते, तस्मात् विषयज्ञाने अव्याप्तिः, यतोहि सर्वं जानामि इति व्यवहारेण सर्वाणि ज्ञानानि न अन्तर्भूतानि, केवलं घटविषयकम् एव इति कृत्वा तत्र कर्मधारयसमासः एव उपयुज्यते। इत्युक्ते सर्वे व्यवहाराः तेषां हेतुः ज्ञानम् इति। ज्ञानं द्वैविध्यं भवति, स्मृतिः अनुभवः इति। अनुभवः स्मृतिं जनयति, यथार्थ अनुभवः अयथार्थः अनुभवः इति प्रकारद्वयम् अस्ति अनुभवस्य। यथार्थः अनुभवः बहवः प्रकाराः, तेषां निरूपणं, तेषां सहकाराणां निरूपणम् अपि आवश्यकः भवति इति कृत्वा प्रथमं स्मृतेः निरूपणं भवति। अतः संस्कारमात्रजन्यं तस्य लक्षणवाक्यं परिशीलयामः प्रथमम्। अस्तु, अन्येन आगतं वा?
वदन् अस्मि
भगिनि। हा, नमस्कारः। अन्य कोऽपि?
हा नमस्ते भगिनि, अखिला अस्मि।
आं भगिनि, नमस्कारः। अस्तु तर्हि रामप्रिया भगिनी।
आं भगिनि,
अत्र त्रिविंशत्यधिक एकशतने पुटे अस्ति, अतः सूचीकटाः न्यायेन, ततः कृपया पठतु।
आम् आं भगिनि, अतः सूचीकटाः न्यायेन आदौ स्मृतिः एव लक्षणमाह, संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति। अत्र प्रथमं सूचीकटाः न्यायः न्यायः इत्यनेन स्मृतिः इति विषयस्य लक्षणवाक्यमस्ति, संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति। इत्युक्ते ज्ञानं, क्षम्यतां, स्मृतिः इति ज्ञानं संस्कारमात्रजन्येन भवति इति।
अत्र सूचीकटाः न्यायः तस्य
आम् पूर्वं पठितवन्तः, यदा कटाः इत्युक्ते किमपि बृहत् पात्रम् इति चिन्तयामि, सूची इत्युक्ते नीडल्, सूची इत्युक्ते लघु अस्ति। यदा तस्य निर्माणं भवति, प्रथमं सूचिः निर्माणमेव प्रथमं भवति, अनन्तरं कटाहः तस्य निर्माणं भवति। किमर्थम् इत्युक्ते तद् बृहत् अस्ति, सूचिः लघु अस्ति इति कारणेन। अत्र
अधिकः समयः अपेक्षते इति कृत्वा एतद् आधारेण सूचीकटाः न्यायेन प्रथमं किं लक्ष्यते
इति, स्मृतिः इति लघु अस्ति इति कारणतः प्रथमं तस्य
निरूपणं भवति,
निरूपणं निरूपणम् आम्
इत्युक्ते अनुभवविषयात् पूर्वं स्मृतेः निरूपणं भवति इति लेखकः अत्र स्मृतिलक्षणमेव लक्ष्यति प्रथमं, तदनन्तरमेव अनुभवविषयकचर्चा इति। अस्तु, अत्र लक्षणवाक्ये संस्कारमात्रजन्यं किञ्चित् प्रतिपादयतु भगिनि।
संस्कारमात्रजन्यं जन्यं जनयति
केन जन्यं भवति स्मृतिः
संस्कारेण जन्यं भवति
संस्कारेण
मात्रम् इत्युक्ते केवलं संस्कारेण एव ज्ञान जन्यं भवति ज्ञानं स्मृतिः इति स्मृतिः इति ज्ञानं केवलं संस्कारेण एव जन्यं भवति
समीचीनं भगिनि समीचीनम् अत्र महोदयेन अन्यत् किमपि अपि उचितमस्ति इत्युक्ते किमर्थं मात्रपदस्य उपयोगः इति कोऽपि वदति वा किमर्थं मात्रम् इति पदस्य उपयोगः लक्षणवाक्ये अन्येन केनापि जन्यं भवति वा स्मृतिः
भगिनि अनुभवजन्यः अपि अस्ति स्मृतिः
अनुभवेन संस्कारः भवति संस्कारात् स्मृतिः अतः संस्कारः इति व्यापारः परन्तु स्मृतिः अन्येन केनापि जन्यं भवति वा इति जन्या भवति वा
चिन्तयामि न
अस्तु अत्र अस्तु अस्तु अत्र महोदयेन उदाहरणं दत्तम् अस्ति सोऽयं देवदत्तः इति स इत्युक्ते तत्र विग्रह वाक्यं भवति सः अयं देवदत्तः इति सो अयं देवदत्तः इत्युक्ते कश्चन देवदत्तं पश्यति पूर्वमपि तेन दृष्टं तेन दृष्टः देवदत्तः दृष्टः पूर्वमपि प्रत्यक्षेन दृष्टः पूर्वम् इदानीमपि प्रत्यक्षेन दृष्टः देवदत्तः केनचित् अतः पूर्वं दृष्टम् इति कृत्वा इदानीं प्रत्यभिज्ञा भवति इत्युक्ते अभिज्ञानं भवति खलु पूर्वं दृष्टः इदानीं स्मरणम् आयाति इति तादृशम् अभिज्ञानं भवति तस्य आत्मनि तदेव प्रत्यभिज्ञा इति उच्यते परन्तु सो अयं देवदत्तः इत्यस्मिन् वाक्ये अयं देवदत्तः इति प्रत्यक्षज्ञानम् कथम् उदेति प्रत्यक्षज्ञानम् चक्षुरिन्द्रियेण चक्षुषा अयं देवदत्तः इति ज्ञानम् भवति सः सो अयं देवदत्तः सो अयं किमर्थम् वा कथम् भवति स्मृतिः अभवत् पूर्वम् दर्शनम् आसीत् इति कृत्वा स्मृतिः भवति तस्य आत्मनि स्मृतिः अभवत् तेन सो अयं देवदत्तः इति आयाति इत्युक्ते पूर्ववर्तिनि अभेद अवगाहि ज्ञानम् इति अभिज्ञानं भवति पूर्वं यत् ज्ञानम् आसीत् तस्य पुनस्मरणं भवति स्मृतिरूपेण इदानीं चक्षुषा अपि दृष्टः परन्तु सः अयं देवदत्तः इत्यस्मिन् वाक्ये सः इत्यस्य सूचनं स्मृत्याः सूचनम् अत्र मात्रम् इत्यस्य का आवश्यकता केवलं संस्कारेण भवति इति कृत्वा स्मृतिः इति कृत्वा मात्रम् इत्यस्य पदस्य उपयोगः भवति अत्र मात्रम् इत्यनेन इन्द्रियस्य चक्षुषा यद्भवति तस्य सूचनं न केवलं संस्कारेण यद्भवति यज्जन्यं भवति सः स्मृतिः इत्यस्य सूचनार्थं मात्रम् इति पदम् स्पष्टं वा
oh.
सुनील महोदय
स्पष्टम् आम् वयं पूर्वमपि दृष्टवन्तः अत्र चक्षुर्मात्रग्राह्यम् इति तादृशमात्रप्रयोगस्य
परन्तु अत्र किमर्थं संस्कारमात्रजन्यम् इति अस्ति
स्मृतिः संस्कारात् एव भवति इति कारणेन अत्र न भवति
अतः एव उक्तं यत् संस्कारजन्यत्वे सति इन्द्रिय अजन्यत्वं यत् मया पूर्वं उदाहरणरूपेण दत्तमस्ति संस्कारजन्यत्वे सति इत्युक्ते संस्कारः अस्ति तेन जायते स्मृतिः परन्तु इन्द्रिय अजन्यत्वम् इत्युक्ते इन्द्रियेण न जायते स्मृतिः इन्द्रियेण यत् ज्ञानं जायते तत्तु भिन्नम् अस्ति स्मृतिरूपेण न परन्तु संस्कारेण यत् जायते तदेव स्मृतिः इति अत एव संस्कारजन्यत्वे सति इन्द्रिय अजन्यत्वम् इति स्पष्टीकरणार्थं संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति लक्षणवाक्यम् स्पष्टं वा अस्तु तर्हि सुनील महोदय अग्रे पठति वा
अनुभवजन्या मतिहेतुर्भावना इति लक्षणेन मूलकृता उपरिष्टात् भावनाख्यः संस्कारः निरूप्यते परन्तु स्मृतिलक्षणं भावनाख्यसंस्कारस्य अज्ञाने ज्ञेयमिति भावनाख्यः संस्कारः आदौ निरूप्यते
तावत्पर्यन्तं महोदय
अतः अत्र अनुभवजन्या स्मृतिः हेतुर्भावना इति अत्र लक्षणवाक्यम् अस्ति अत्र भावनाख्यः संस्कारः इति अत्र निरूप्यते इत्युक्ते अत्र स्मृतेः हेतुः भावना अस्ति सा भावना अत्र अनुभवजन्या एव अस्ति इति
समीचीनम्
अतः तदेव अत्र अस्ति अनन्तरं स्मृतिलक्षणं भावनाख्यसंस्कारस्य अज्ञाने दुर्ज्ञेयमिति भावनाख्यः संस्कारः आदौ निरूप्यते अत्र स्मृतिलक्षणं भावनाख्यसंस्कारस्य पठनं विना दुष्करं भवति इति कारणेन अत्र भावनाख्यसंस्कारः एव आदौ अत्र वयं पठामः
समीचीनम्
अग्रे
त्रिंशत् तमे पुठे यत् अस्ति पूर्वं पठितम् अस्माभिः परन्तु अत्र विषयः भिन्नः अस्ति इति कृत्वा तत् पूर्वं पठामः अन्य केनापि आगतं वा महोदय भवती शृणोति एव वा अस्तु भगिनि अहं शुकवनं महोदय किमपि पृष्टः वा भवता
किं वा इति
किं
वर्गः आरब्धं वा
आमाम् अस्तु राजेन्द्रमहोदय त्रिंशत्तमे पुटे ये तु घटकारणीभूताः इति आरभ्य पठतु कृपया
ये तु घटकारणीभूताः दण्डचक्रादयः ते घटादिकरणे कपाले वर्तन्ते सर्वदा वर्तन्ते एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति दण्डः घटकारणं चक्रं घटकारणम् इति व्यवहारः तत्र च किञ्चन कस्यचित् कारणम् इति निर्धारयितुं घटकारणीभूतः घटस्य कारणं घटनिर्माण समये तत् कारणानि भवन्ति तत्र दण्डचक्र आदि आदि सर्वे तत् घटादिकरणे काले वर्तन्ते सर्वदा वर्तन्ते एवं घटोत्पत्ते पूर्वक्षणे वर्तन्ते यदा यथा दत्तमस्ति किमपि कारणानि भवन्तु कस्यपि कार्यं प्रति ते कारणानि तत्र तेन कार्याधिकरणे स्थातव्यं तेन कार्याधिकरणे सर्वदा स्थातव्यं तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् तत् त्रीणि अंशानि तत्र आवश्यकी सन्ति तदनन्तरम् एव गत उत्पत्तिः जायते यथा यत्किमपि घटकारणीभूताः सन्ति दण्डचक्रः कपालः कुलालः तत् किमपि तत् सर्वे घटोत्पत्ति उत्पत्ति पुरुषे तत् भवन्ति तदा एव घटकारणं घटः जनयति तथा तथैव वक्तुमस्ति कार्याधिकरणे स्थातव्यं कार्याधिकरणे सर्वदा स्थातव्यं तेन कार्याधिकरणे कार्य उत्पत्तेः पूर्वक्षणे स्थातव्यम्
इति अस्तु अस्य कार्यस्य इदं कारणम् इति निर्धारणे निकषत्रयं परिपूर्यते इति एव अस्ति. इदानीं पुनः त्रयोविंशत्यधिक एकशतमं पुटम् आगच्छतु. तत्र नियतेन इति आरभ्य पठतु महोदय.
अस्तु भगिनि. नियतेन कारणेन कार्यस्य उत्पत्तिं वयं सर्वत्र निरूपयामः. तन्तुकुबिन्दानां संवधाने समावधाने पटः चक्राल कपालादीनां समावधाने घटः इत्येवं रीत्या तत् कार्यस्य नीता भवति. तत् ये किमपि तत् कारणानि भवन्ति ते नियतकारणानि भवन्ति तत् तत् तेषाम् आवश्यकी अस्ति कार्यस्य उत्पत्ति कृते. तत्र यथा वदामः तन्तुकुबिन्दानाम् उत्पत्ति कृते पटस्य उत्पत्ति कृते तन्तुकुबिन्दः तत्र भवतु अथवा चक्रः कुलाः कपालादीनां तत् घटस्य उत्पत्ति स्थले भवतु तत् कार्यस्य नियता सामग्री भवति ते तत् नियता सामग्री भवति. निश्चयेन तत् भवतु तत् तदनन्तरमेव कार्य उत्पत्तिः भवति अन्यथा एकपि कारणं तत्र न भवति तथा तत् कार्यस्य उत्पत्तिः न भवति.
समीचीनम्. अग्रे अपि पठतु महोदय.
एतांश्च पटघटादीन् प्रति कारणत्वं पूर्वम् एव उक्तः यथा इदानीमपि त्रिंशत्पुटे पठितवन्तः पटनिर्माणसमये अथवा घटनिर्माण अथवा अन्य कोऽपि यस्किमपि कार्यस्य प्रति कारणत्वं ये निक्षाः तैः निर्धार्यते. यत्किमपि तत् आवश्यकः सन्ति कारणानि तथा तथैव निर्धारणं कर्तुं शक्नुमः किं किं कारणं तत् कार्यस्य उत्पत्तिः कृते निश्चयः कर्तुं शक्नुमः. तत् यथा वयं तत्र त्रिंशत् पुटे पश्यामः तत्र कार्यं स्थातव्यं कार्य सर्वदा स्थातव्यम्, अन्यथा कार्य उत्पत्ति पूर्वम् एव स्थातव्यं, तत् यत्किमपि आवश्यकः अस्ति अस्ति कारणानि ते तत् भवन्ति, तत् एव कार्यम् उत्पद्यते, अन्यथा नो चेत् न कार्यं न उत्पद्यते। ते निश्चयः एव अन्येन प्रकारेण अन्वयसहचारः व्यतिरेकसहचारः इति पदाभ्यां निरूपिताः। अशीति तमे पुटे अत्र अन्वयसहचारः यथा सम्यक्तया न स्मरामि भगिनि, अन्वयसहचारः
अस्तु अस्तु, तस्य पुनस्मरणम् अत्र अन्वयसहचारः व्यतिरेकसहचारः इति। वर्धनी भगिनी प्रयत्नं करोति वा? भगिनि अस्ति वा?
आम् अस्ति भगिनि, अन्वयसहचारः इति पदार्थनिरूपणम् अत्र एव वा?
न न, केवलं वदतु भगिनि, नो चेत् पुनः पठामः, परन्तु स्मरणम् अस्ति चेत् किञ्चित् वदतु अस्य विषये।
कारण
पूर्वम् अस्माकम् अनुमानप्रसङ्गे अस्माभिः दृष्टम् अन्वयसहचारः व्यतिरेकसहचारः च खलु,
अन्वयसहचारः कार्यमस्ति कारणमस्ति खलु,
कार्यं कार्यम् अस्ति चेत् कार्यं कारणं भवेत्
भवति
अन्वयसहचारः,
कार्यं नास्ति कारणं नास्ति इति व्यतिरेकसहचारः।
कारणाभावे कार्याभावः इति व्यतिरेकसहचारः, अन्वयसहचारः अस्तित्वं सूचयति इत्युक्ते कार्यमस्ति चेत् कारणं भवेत् इति। व्यतिरेकसहचारः नास्तित्वं सूचयति,
कारणं नास्ति कार्यमपि नास्ति,
कार्यमपि नास्ति इति
अभावः अभावः सूचयति।
हा समीचीनम्, अत्र इदानीम् अस्मिन् परिच्छेदे कार्यकारणभावस्य सूचनम् आसीत् खलु,
समपृथिवी
संवारः वा समवदाने तन्तुकुमिन्दानां समवदाने पटः इति कार्यं, पुनः घटः इति कार्यं, पटं प्रति कारणम् अपेक्षितं तन्तुकुमिन्दानां समवदानम् इति, पुनः घटं प्रति चक्रकुलालकपालादीनां समवदानम् अपेक्षितम् इति अस्ति। तत्र अत्र वाक्यं किम् अस्ति, ते निकषाः ये यान् पठितवन्तः पूर्वं राजेन्द्रमहोदयेन पठितमस्ति त्रिंशत्तमे पुटे, ते एव अन्येन प्रकारेण निरूपिताः इति अस्ति। तर्हि घटं प्रति कपालः कारणम् इति वदामश्चेत् तत्र कार्यकारणभावः तु नियतः अस्ति खलु, अन्येन प्रकारेण कथं वक्तुं शक्नुमः, अन्वयसहचारेण वा व्यतिरेकसहचारेण? इदानीं भवत्या उक्तमेव कार्यम् अस्ति चेत् कारणं भवेत् इति, तर्हि घटकपालविषये कथं वदामः?
कपालः
कार्यम् अस्ति चेत्
घटः कार्यं,
घटः कार्यं,
कपालः अस्ति चेत् अपि घटः न विद्यते।
तर्हि वाक्यं किं भवति, अन्वयसहचारवाक्यम्?
अन्वयसहचारवाक्ये कार्यमस्ति कारणं नास्ति खलु,
सहचारः इत्युक्ते
कारणमस्ति कार्यम् अस्ति,
द्वयोः विद्यमानम् अस्ति खलु, कार्यं कारणम् अपि. तर्हि अत्र घटः इति कार्यं, कपालः इति कारणम्. अतः घटमस्ति चेत् घटं घटः दृष्टः इदानीम्. अतः घटः अस्ति चेत् अवश्यं कपालः भवेत् इति खलु. तर्हि व्यतिरेकसहचारः,
व्यतिरेकसहचारः घटः अस्ति कपालः नास्ति.
एवं नास्तित्वम् इति खलु, द्वयोः नास्तित्वम्. तर्हि
घटः नास्ति कपालः न, अभावः सूचयति.
आम् आम्. तर्हि कथं वदामः, कारणस्य अभावः अस्ति चेत् कार्यस्य अभावः इति खलु. इत्युक्ते
अन्वयव्यतिरेकसहचारः.
हा, घटः अपि तु कपालः तत् तत् स्थाने उपयुज्य कथं वदामः,
घटः
अभावः इति.
घट कपाल अभावः चेत् घटः अभावः.
समीचीनं भगिनि. भिन्न भिन्नरूपेण
कारणं नास्ति.
हा, कारणं नास्ति चेत् कार्यं नास्ति एव खलु. कार्यम् अस्ति चेत् अवश्यं कारणं भवेत्. अतः अत्र अन्वयसहचारः. समीचीनम्. अत्र व्याप्तिज्ञानस्य उपयोगः भवति. पूर्वं व्याप्तिज्ञानविषये कुत्र पठितमस्ति?
अग्निधूमः इति वा?
आम् आम्, अनुमानविषये खलु. अत्र तु घटः कपालः च स्वीकृतमस्ति अस्माभिः. इत्युक्ते अन्यत् उदाहरणमस्ति, गन्धः पृथ्वी इति.
पृथ्वी गन्धः नास्ति, पृथ्वी नास्ति, समानाधिकरणमस्ति.
पृथ्वी नास्ति चेत् गन्धः नास्ति इति खलु. अत्र व्याप्तिज्ञानरूपेण कथं वदामः, यत्र यत्र गन्धः तत्र तत्र पृथ्वी.
पृथ्वी
यत्र पृथ्व्या
पृथ्वी नास्ति, गन्धः अपि नास्ति.
समीचीनं. वा अभावः इति चेत् यत्र यत्र पृथ्व्याभावः तत्र तत्र गन्धाभावः इति. अस्तु, अतः कार्यकारणभावः तु दृष्टः घटकपालविषये, अपि तु पृथ्वी गन्धविषये. व्याप्तिज्ञानम् उपयुज्य यत्र यत्र गन्धः तत्र तत्र पृथ्वी इति अन्वयसहचार अन्वयव्याप्तिः. पुनः यत्र यत्र पृथ्व्याभावः तत्र तत्र गन्धाभावः. वा यत्र यत्र घटः तत्र तत्र कपालः. यत्र यत्र कपालाभावः तत्र तत्र घटाभावः इति खलु. अस्तु, वेङ्कटेश महोदय. न तत्र इदानीं पठनविषये किमपि नास्ति, केवलं चर्चाविषयः एव. एतत् अतिरिच्य अन्यत् उदाहरणमपि दृष्टम् अनुमानविषये. तस्य स्मरणमस्ति वा? व्याप्तिज्ञानम् उपयुज्य अनुमानं कथम् उदेति? चत्वार सोपानानि सन्ति खलु, तत् किञ्चित् वदति वा, उदाहरणं स्वीकृत्य?
अनुमानम् इदानीं पर्वतः वन्निमान्.
पर्वतः वन्निमान् धूमात् इति अनुमानवाक्यं.
धूमवत्वात् इति, तत्र यः धूमवान् सः वन्निमान् यथा महानसम् इति तत्र अस्मात् तथा च अयम् अतः तत्र पर्वतः वह्निमान् तस्मात् तथा धूमः भवति तत्र वह्निः भवति इति धूमवत्वात् पर्वते वह्निः अस्ति अतः पर्वतः वह्निमान् इति तत्र अनुमानं पर्वतः वह्निमान् इति प्रतिज्ञावाक्यं भवति तत्र हेतुः धूमवत्वात् इति
समीचीनं हेतुः इति
धूमवत्वात् इति तत्र उदाहरणवाक्यं भवति यः यः धूमवान् सः वह्निमान् यथा महानसम् इति उदाहरणवाक्यं तत्र उपनयवाक्यं तथा चायम् इति तत्र अनिव्याप्य धूमवान् अयं पक्षः इति उपनयवाक्यं निगमनवाक्यं तस्मात् तथा इति तस्मात् धूमवत्वात् तथा वह्निमान् इति
अनुमानवाक्यं निगमनं समीचीनं महोदय. अत्र अनुमानप्रयोगे वा अनुमानप्रसङ्गे व्याप्तिज्ञानं किम्? अन्यत्र कुत्रापि दृष्टं खलु पूर्वज्ञानम् अस्ति
व्याप्तिज्ञानम् एकत्र हेतुः साध्यम् इति तत्र
व्याप्तिः हा यत्र यत्र धूमः तत्र तत्र वह्निः वा यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अभावभाषया
यत्र यत्र हेत्वभावः तत्र तत्र साध्यभावः
एवं विपरीतत्वेन वक्तव्यं खलु अभावभाषया वदने चेत् यत्र यत्र वन्याभावः तत्र तत्र धूमाभावः इति किमर्थं तादृशं यतोहि यत्र यत्र धूमाभावः तु कुत्रचित् भवति
कार्यं नास्ति तत्र
खलु सर्वत्र धूमः भवति इति न वह्निः अस्ति कुत्रचित् धूमः अस्ति कुत्रचित् धूमः नास्ति इति कृत्वा यत्र धूमं पश्यामः तत्र अवश्यं वह्निः अस्ति इति ज्ञानम् परन्तु यत्र वन्याभावः अस्ति तत्र अवश्यं धूमाभावः भवति एव निश्चयेन वक्तुं शक्नुमः खलु अतः अन्वयसहचारवाक्यं किम् यत्र यत्र धूमः
यत्र धूमः तत्र तत्र
वह्निः अपि व्यतिरेकसहचारः
यत्र 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 वन्याभावः तत्र तत्र धूमाभावः
समीचीनम् अस्तु इति व्याप्तिज्ञानं तु स्पष्टम् अस्ति अत्र व्याप्तिज्ञानम् इत्युक्ते हेतुसाध्ययोः यः सम्बन्धः अस्ति सः एव सा एव व्याप्तिः इति तत्तु स्पष्टमेव अत्र अत्र पर्वतः वह्निमान् धूमात् इत्यस्मिन् अनुमाने कार्यकारणभावः दृश्यते वा शुकवन
महोदय
अत्र व्याप्तिज्ञानं तु स्पष्टमस्ति खलु परन्तु कार्यकारणभावः दृश्यते वा अत्र यथा गन्धपृथ्व्योः सम्बन्धः वा कपालघटयोः सम्बन्धः
अत्र इत्युक्ते किं भगिनि
प्रश्नं पर्वतः वह्निमान् धूमान्
निश्चयेन विद्यते वह्निः अस्ति चेत् एव धूमः भवति इति कृत्वा धूमस्य कारणं वह्निः वह्निः नास्ति चेत् धूमः कदापि न भवति इति कृत्वा तत्र अन्वयसहचारः व्यतिरेकसहचारः द्वयमपि अस्ति व्याप् नित्यव्यापकभावः धूमवन्योः मध्ये अस्ति, अपि च कार्यकारणभावः अपि अस्ति.
समीचीनम्. व्याप्यव्यापकः भावः अस्ति, अपि तु कार्यकारणभावः अस्ति. इत्युक्ते अत्र कार्यम् अस्ति धूमः, कारणमस्ति वह्निः इति. अतः वह्निः कारणं भवति धूमं प्रति. अस्मिन् अनुमानवाक्ये तु स्पष्टम् अस्ति, कार्यकारणभावः अस्ति, अपि तु व्याप्यव्यापकभावः अपि अस्ति. अस्तु, इदानीं पूर्वम् अनुमानप्रसङ्गे कस्मिंश्चित् करपत्रे एतत् वाक्यं दृष्टम् अस्माभिः. अहं पठामि. अनुमानस्थले व्याप्यव्यापकभावः प्रमुखः, कार्यकारणभावः कुत्रचित् भवति, कुत्रचित् न भवति. किन्तु व्याप्यव्यापकभावेन अनुमानप्रमाणं नाम अनुमितिः सिद्ध्यति. इत्युक्ते किं, सुनील महोदय?
अत्र प्रथमं व्याप्यः इत्युक्ते न्यूनदेशे वर्तते इति, व्यापकः इत्युक्ते अधिकदेशे वर्तते इति एव अस्ति. अतः अत्र धूमः धूमवन्योः मध्ये धूमः व्याप्यः, वह्निः व्यापकः इति.
समीचीनम्.
तयोर्मध्ये यत्र व्याप्यः अस्ति तत्र व्यापकः अधिकदेशे भवति. तत्र धूमवन्योः मध्ये व्यापकभावः एव अस्ति.
इत्युक्ते यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति. व्यतिरेकेन
तत्र विपरीतं भवति. इत्युक्ते एतस्मिन् उदाहरणे एव व्याप्य अभावः अधिकदेशे भवति, व्यापक अभावः न्यूनदेशे भवति. अतः व्यतिरेक विषये व्याप्य अभावः एव अधिकदेशे अस्ति, अथवा धूमाभावः अधिकदेशे भवति, वन्याभावः न्यूनदेशे भवति.
समीचीनम्. इत्युक्ते यत्र व्यापकाभावः तत्र व्याप्याभावः इति अस्ति. अस्तु, परन्तु यत् पठितं मया तत्र किम् अस्ति, अनुमानस्थले व्याप्यव्यापकभावः प्रमुखः, यत् भवता उक्तम् उदाहरणेन. कार्यकारणभावः कुत्रचित् भवति, कुत्रचित् न भवति. किन्तु व्याप्यव्यापकभावेन अनुमानप्रमाणं नाम अनुमितिः सिद्ध्यति. इत्युक्ते किम्?
इत्युक्ते अत्र धूमस्य च वह्नेः वृत्तित्वं स्वीकृत्य एव अनुमितिः ज्ञातुं शक्नुमः.
वृत्तित्वं वा व्यापकत्वम्? इत्युक्ते व्याप्तिज्ञानं, तयोः व्याप्तिः अस्ति इति कृत्वा एव अनुमानं जायते. परन्तु अस्मिन् वाक्ये किम् अस्ति, कुत्रचित् कार्यकारणभावः न भवति इति अस्ति. परन्तु एतावता दृष्टं वा उदाहरणैः? इत्युक्ते धूमवह्निप्रसङ्गे वा
संस्कारमात्रजन्यं कारणकार्यं न भवति न? स्मृति अस्ति चेत् कार्यकारणभावः न भवति.
स्मृतिः एकविधेन स्मृतिः एव खलु भगिनि? पूर्वं दृष्टम् अस्माभिः महानसे अग्निः आसीत्, अतः धूमः जातः इति खलु. परन्तु अत्र प्रश्नः अस्ति कार्यकारणभावः कुत्रचित् न दृश्यते इति. परन्तु अस्मिन् उदाहरणे धूममन्योः उदाहरणे तादृशी स्थितिः अस्ति वा कार्यकारणभावः नास्ति इति?
तत्र अधिकरणमस्ति रक्षः इति, अत्र पर्वतः इति.
परन्तु कार्यकारणभावः अस्ति वा न?
कार्यकारणभावः अस्ति अस्मिन्.
अस्ति एव खलु. परन्तु किमर्थम् एतत् वाक्यम् अस्ति करपत्रे? कुत्रचित् कार्यकारणभावः न भवति, कुत्रचित् भवति. परन्तु अनुमितिप्रसङ्गे तु व्याप्यव्यापकभावः प्रमुखः इति अस्ति. अस्तु, अन्यत् उदाहरणमपि पश्यामः. वह्निः उष्णः वह्नित्वात् इति अपि अस्माभिः दृष्टं पूर्वम् अनुमितिप्रसङ्गे. वह्निः उष्णः वह्नित्वात् इति उदाहरणं. तत्र का स्थितिः? कः व्याप्यः, कः व्यापकः? राजेन्द्र अखिला भगिनी वदति वा?
आं भगिनि, वह्निः उष्णः
वह्नित्वात् इति.
क्षम्यतां, वह्नित्वात् एनैवं तन्नैवम् यथा हरदः इति वयं पूर्वं दृष्टवन्तः. तत्र उष्णः इति साध्यः वह्नित्वम् इति हेतुः. अत्र व्याप्यः अत्र व्यतिरेकसहचारेण वयं पूर्वं तत्र साधितवन्तः अनुमानज्ञानमिति. तर्हि अत्र व्याप्यः भवति साध्याभावः, व्यापकः अस्ति हेत्वाभावः. इत्युक्ते यत्र यत्र उष्णत्वाभावः अस्ति तत्र तत्र वह्नित्वाभावः यथाहदः इति कृत्वा अत्र यत्र यत्र तादृश उष्णत्वाभावः नास्ति तत्र तत्र वह्नित्वाभावः अपि नास्ति इति. यत्र यत्र वह्नित्वाभावः अस्ति तत्र तत्र क्षम्यतां, यत्र यत्र उष्णत्वाभावः अस्ति तत्र 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 वह्नित्वाभावः अस्ति. परन्तु अस्मिन् पक्षे तथा न, पर्वते तादृश क्षम्यतां, बह्नौ तादृश वह्नित्वाभावः नास्ति इति कृत्वा वह्नित्वाभावाभावः अस्ति इति कृत्वा वह्निः अस्ति तदर्थम् उष्णः औष्ण्यमपि अस्ति अथवा वह्निः उष्णः इति वयम् अत्र साधितवन्तः. आहत्य तत्र व्याप्यः भवति वह्नित्वाभावः, व्यापकः अस्ति उष्णत्वाभावः.
समीचीनं. यदि वयम् अन्वयसहचारम् अन्वयसहचारस्य प्रयोगं कुर्मः इत्युक्ते यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति विपरीतत्वेन वक्तुं शक्नुमः खलु. वह्निः उष्णः वह्नित्वात् इति केवलं तदेव स्वीकुर्मश्चेत् यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति भवति. तत्र यत्र यत्र वह्नित्वं तत्र वह्नित्वम् इति व्याप्यः,
यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति वदामः चेत् तत्र वह्नित्वम् इति व्याप्यः, उष्णत्वम् इति व्यापकः.
किमर्थम्?
तत्तु यत्र यत्र धूमः तत्र इति वस्तु, इत्युक्ते यत्र यत्र हेतुः तत्र तत्र साध्यम् इति. हेतुः न्यूनदेशवृत्तिः, साध्यमिति अधिकदेशवृत्तिः. न्यूनदेशवृत्तिः भवति व्याप्यः, अधिकदेशवृत्तिः भवति व्यापकः.
अत्र वह्नित्वम् इति व्याप्यः इति उक्तं भवत्या. तर्हि वह्नित्वं न्यूनदेशवर्ति वा? किमर्थम्
वह्नित्वम् इति उष्णत्वापेक्षया न्यूनदेशवृत्तित्व वृत्तिः खलु, यतोहि वह्नित्वं केवलं वह्नौ अस्ति, परन्तु उष्णत्वं तु वह्निमतिरिच्य अन्यत्रापि, इत्युक्ते सूर्यतापे अपि औष्ण्यमस्ति इति वयं पूर्वं दृष्टवन्तः, तर्हि उष्णत्वम् इति अधिकदेशवृत्तिः भवति.
समीचीनं भगिनि, एतत् स्पष्टं वा? यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति अन्वयसहचारः. अत्र वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वाक्ये यथा अखिला भगिन्या उक्तं, वह्नित्वम् इति केवलं वह्नौ एव नास्ति, वह्नौ एव अस्ति. वह्नित्वम् इति धर्मः, वह्न्याः धर्मः अस्ति, वह्नौ एव अस्ति, परन्तु उष्णत्वं तु अधिकदेशे वर्तते, सूर्य आतपे वर्तते, अन्यत् कुत्रापि. अतः उष्णत्वम् इति बृहद्देशवर्ति, परन्तु वह्नित्वं केवलं वह्नौ एव अस्ति इति कृत्वा यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति भवति. व्यतिरेकसहचारेण यत्र यत्र उष्णत्वाभावः तत्र तत्र वह्नित्वाभावः इति भवति. राजेन्द्रमहोदय, स्पष्टं वा? पुनः वदति वा?
अत्र वह्नित्वात् मूलवाक्यं किम् आसीत् भगिनि? वह्नि
अनुमानवाक्यम् अस्ति, वह्निः उष्णः वह्नित्वात् इति.
एतस्मिन् सन्दर्भे किम् अस्ति, वह्निः व्याप्य अस्ति, उष्णत्वं तु व्यापकः अस्ति, यथा वह्निः न्यूनदेशे अस्ति, न्यूनदेशवृत्तिः अस्ति, उष्णत्वं तु अधिकदेशवृत्तिः अस्ति. तत् कारणात् यत्र यत्र वह्निः तत्र 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 तु उष्णत्वं तु भवति भवति, तत्र कार्यम् अस्ति, तत्र तत् कारणम् अपि भवति अन्वयसञ्चारः. परन्तु यत्र उष्ण अभावः अस्ति तत्र 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 वह्नि अभावः अपि अपि भवति, तत् व्यतिरेकसञ्चारः तथा वदामः.
समीचीनं समीचीनम्. अत्र भवान् वदतु, वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वाक्ये कार्यकारणभावः प्रदर्श्यते वा? पूर्वं दृष्टम् अस्माभिः पर्वतः वह्निमान् धूमात् इत्यस्मिन् प्रसङ्गे अखिल भगिनी, प्रश्नः आसीत् वा?
हा, प्रश्नः इति न, प्रायः प्रश्नः एव. तत्र भवती उक्तवती खलु तत्र वह्निः उष्णः वह्नित्वात् इति, परन्तु अत्र अन्वयसहचारः वस्तुतः कार्यं न करोति खलु, तदर्थमेव. यतोहि तत्र वह्नित्वम् इति पक्षभिन्नस्थले न लभ्यते इति कृत्वा अन्वयसहचारेण तत्र अनुमानं न भवति इत्येव व्यतिरेकसहचारः
इत्यस्य उपयोगः भवति. सम्यक् एव भगिनि, परन्तु केवलं प्रदर्शनार्थं किं कः व्याप्यः कः व्यापकः.
हा अस्तु भगिनि, तत्र मम भ्रमः जातः तदर्थं.
परन्तु अभावस्य उपयोगः एव अनुमानविषये भवति अत्र. अभावेन एव अनुमान अनुमितिः जायते, तत्तु सत्यमेव. अस्तु, तर्हि अत्र कार्यकारणभावः प्रदर्श्यते वा राजेन्द्रमहोदय?
अत्र वह्निः उष्णः वह्नित्वात् तत्र यत्र यत्र वह्निः अभावः अस्ति तत्र उष्ण अभावः अपि अस्ति. तत् कारणात् तत्र कार्यकारणभावः दृश्यते
कथं दृश्यते किं कारणं किं कारणं कार्यं
वह्निः अस्ति कार्यं तु उष्णतम् अस्ति यत् वह्नि अभावे तत्र उष्णतम् अभावः अपि जायते तत्कारणात् तत् वह्निः तु कारणम् अस्ति उष्णत्वं तु कार्यमस्ति
पूर्वस्मिन् वाक्ये इत्युक्ते पूर्वस्मिन् उदाहरणे पर्वतः वह्निमान् धूमात् इत्यस्मिन् उदाहरणे किं कार्यं किं कारणम्
तत्र भगिनी कुत्रचित् कुत्रचित् अग्निं भवेत् परन्तु धूमः नापि भवितुम् अर्हति तत्कारणात् तत्र कार्यकारणभावः नित्यः न अस्ति तत्र
परन्तु धूमः दृश्यते चेत्
धूमः दृश्यते चेत् तत् वह्निः भवेत्
खलु अत्र तु धूमस्य दर्शनम् आसीत् इति कृत्वा धूमं प्रति वह्निः कारणं खलु अत्र वह्नित्वं प्रति कारणमस्ति वा वह्नित्वं प्रति औष्ण्यं कारणं भवति वा
न तथा चिन्तयामि तथा न वह्निः तु कारणमस्ति उष्णत्वं तु कार्यम्
तर्हि अत्र कार्यकारणभावः न लभते एव खलु व्याप्यव्यापकभावः तु दृश्यते इत्युक्ते यत्र यत्र उष्णत्वाभावः तत्र तत्र वह्नित्वाभावः इति अस्ति परन्तु वह्नित्वं प्रति औष्ण्यं कारणं न भवति एव
औष्ण्यं कारणं न भवति अहं तु विपरीतदिशि चिन्तयामि
परन्तु वाक्यस्य शैलीं दृष्ट्वा पूर्वं किम् आसीत् पर्वतः वह्निमान् धूमात् इति खलु अत्र वह्निः उष्णः वह्नित्वात् इति अस्ति इत्युक्ते वह्नित्वम् अस्ति इति कारणात् वह्निः उष्णः इति अस्ति वाक्यस्य अर्थः खलु परन्तु तादृशकार्य
परन्तु कार्यकारणभावः न अस्ति अत्र
अत्र कार्यकारणभावः नास्ति नास्ति एव अतः किम् अवगम्यते अनेन प्रथमम् उदाहरणं दृष्टं पर्वतः वह्निमान् धूमात् यत्र व्याप्यव्यापकभावः अस्ति अपि तु कार्यकारणभावः अत्र वह्निः उष्णः वह्नित्वात् इत्यस्मिन् उदाहरणे केवलं व्याप्यव्यापकः भावः दृश्यते न तु कार्यकारणभावः अनेन किम् अवगम्यते पूर्वं पठितं खलु अस्माभिः करपत्रे यत् वाक्यम् आसीत् कुत्रचित् कार्यकारणभावः भवति कुत्रचित् न भवति इति अनुमानप्रसङ्गे
न स्मरामि
किम् मया पठितम् अस्ति अनुमानस्थले व्याप्यव्यापकभावः प्रमुखः कार्यकारणभावः कुत्रचित् भवति कुत्रचित् न भवति किन्तु व्याप्यव्यापकभावेन अनुमानप्रमाणं नाम अनुमितिः सिद्ध्यति इति करपत्रात् पठितं मया तत्तु एतत् उदाहरणमस्ति तस्य खलु वह्निः उष्णः वह्नित्वात् इत्यस्मिन् कार्यकारणभावः न दृश्यते परन्तु व्याप्यव्यापकः भावः अवश्यम् अस्ति खलु स्पष्टं वा वर्तनी भगिनी
पुनः वदतु भगिनि
अत्र वह्निः उष्णः वह्नित्वात् इत्यस्मिन् व्याप्तिज्ञानम् अस्ति वा इत्यस्मिन् अस्मिन् अनुमितिवाक्ये व्याप्तिज्ञानं भवति वा व्याप्तिज्ञानम् इत्युक्ते किम्
वह्नित्वात् उष्णत्वं व्याप्य
पूर्वस्मिन् अनुमितिवाक्ये इत्युक्ते पर्वतः वह्निमान् धूमात् इत्यस्मिन् व्याप्तिज्ञानम् आसीत्
व्यापकभावः अस्ति खलु
अत्र किं का स्थितिः वह्निः उष्णः वह्नित्वात्
कार्यकारणभावः नास्ति
प्रथमं व्याप्तिज्ञानम् व्याप्तिः अस्ति वा व्याप्यव्यापकभावः अस्ति वा कयोः वह्निः उष्णः वह्नित्वात् इति अस्ति वह्निः इति पक्षः उष्णः इति साध्यः वह्नित्वात् वह्निः इति हेतुः
वह्निः व्यापय व्याप्यः अथवा हेतुः अपि
हा वह्नित्वम् इति हेतुः क्षम्यतां वह्नित्वम् इति हेतुः अत्र व्याप्यव्यापकः भावः अस्ति वा कथम् अनुमितिवा ज्ञानं जायते व्याप्तिज्ञानस्य आधारेण एव खलु यथा अखिल भगिन्या उक्तम्
कृष्णः व्यापकः
किं भगिनि
वह्निः व्याप्यः उष्णः व्यापकः खलु
उष्णत्वं व्यापक समीचीनं तर्हि व्यतिरेकसहचारम् उपयुज्य इत्युक्ते यत्र यत्र उष्णत्वाभावः तत्र तत्र वह्नित्वाभावः इत्यनेन व्याप्यव्यापकभावः प्रदर्श्यते खलु यत्र यत्र उष्णत्वाभावः तत्र तत्र वह्नित्वाभावः इति इत्युक्ते यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इति यतोहि उष्णत्वं व्यापकम् अस्ति खलु
उष्णत्वं व्यापकम् अस्ति
उष्णत्वं वह्निम् अतिरिच्य अन्यत्र कुत्रापि अन्यत्र अपि वर्तते खलु
सूर्यकिरण
हा अतः व्यतिरेकसहचारे विपरीतत्वेन वक्तव्यं भवति यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इति अस्तु तर्हि प्रश्नः अस्ति यत् अत्र कार्यकारणभावः दृश्यते वा इति
कार्यकारणभावः नास्ति खलु
किमर्थम्
वह्निं प्रति औष्ण्यं कारणं न भवति
हा समीचीनम् अतः अत्र अस्मिन् अनुमितिवाक्ये वैलक्षण्यम् अस्ति परन्तु तत्र पर्वतः वह्निमान् धूमात् इत्यस्मिन् अनुमितिवाक्ये तु स्पष्टः एव कार्यकारणभावः खलु धूमं प्रति वह्निः कारणम् इति अस्तु तर्हि अनेन किम् अवगम्यते
श्रुतवनम् अत्रापि अन्वयसहचारः अपि विद्यते किल यत्र यत्र वह्नित्वं तत्र तत्र यत्र यत्र औष्णत्वं तत्र तत्र वह्नित्वम्
इति न
यत्र यत्र वह्नित्वं यत्र यत्र वह्नित्वं तत्र तत्र औष्णत्वम्
इति साधारणतया परन्तु मूल अनुमितिवाक्ये पूर्ण अनुमितिवाक्यम् अस्ति यत् वह्निः उष्णः वन्दित्वात् यन्नैवं तन्नैवं यथा रगः इति आयाति. तस्मात् एव भगिन्या उक्तं यत् व्यतिरेकसहचारेण एव अनुमितिवाक्यं सिद्ध्यते इति. परन्तु साधारणतया
यत्र यत्र औष्णत्वाभावः तत्र तत्र वन्नित्वाभावः इति व्यतिरेकसहचारः.
समीचीनम्.
इदानीम् अन्वयसहचारः यत्र यत्र वह्नित्वं तत्र तत्र औष्णत्वम् इति न वक्तुं शक्यते वा
इति वक्तुं शक्नुमः, परन्तु अनुमानस्य कृते न. इत्युक्ते कथम् अनुमितिः जायते इति वदनार्थम् अन्वयसहचारस्य प्रयोगः न भवति, परन्तु केवलं अभ्यासाय अन्वयसहचारकः. इत्युक्ते यत्र यत्र वन्नित्वं तत्र तत्र उष्णत्वम् इति भवति. अस्तु, तर्हि अनेन किम् अवगम्यते वेङ्कटेशमहोदय? उदाहरणद्वयं दृष्टम् अस्माभिः खलु. प्रथमं पर्वते धूमः वह्निः इति, द्वितीयं तु वह्निः उष्णः वन्नित्वात् इति.
यत्र अहं चिन्तयामि अनुमानप्रसङ्गे व्यतिरेकसहचारेण एव यत्र वक्तुं तत्र अनुमितिज्ञानम् उत्पद्यते, न तु अन्वयसहचारेण. तत्र व्याप्यव्यापकभावेन एव तत्र अनुमितिज्ञानं भवति, न तु कार्यकारणेन. यतः इदं कार्यम् इदं कारणम् इति वदनेन तत्र अन्वयव्यतिरेक सहचाराभ्याम् एव वक्तुं शक्नुमः इदमेव कार्यम् एतस्य कारणात् इदमेव कारणम् एतस्य कारणात् तत्र इदं कार्यम् उत्पद्यते इति तत्र वक्तुं न शक्नुमः. तत्र कुत्रचित् उदाहरणद्वयम् अस्माभिः दृष्टम् इदानीं. तत्र एकस्मिन् प्रसङ्गे तु व्याप्यव्यापकभावः अस्ति, कारणकार्यभावः अपि अस्ति, परन्तु अन्यप्रसङ्गे तथा नास्ति. अतः
द्वितीय उदाहरणे किम् अस्ति, किं विद्यते किं न विद्यते?
किं न विद्यते इत्युक्ते तत्र कार्यस्य अभावः भवति चेत् कारणस्य अभावः इति भवति इति तत्र विपरीतत्वेन एव तत्र वक्तुं शक्नुमः. न तु तत्र कार्यं नास्ति चेत् कार्यं कारणं नास्ति चेत् कार्यं नास्ति इति. तत्र सामान्यरूपेण यथा व्यतिरेकसहचारकार्यकारणभावे वयं वदामः तथा रीत्या अनुमितिज्ञानं अनुमितिप्रसङ्गे वक्तुं न शक्नुमः.
हा, तत्तु सत्यं, परन्तु कार्यकारणभावः दृश्यते वा?
न दृश्यते. यतः तत्र द्वितीय उदाहरणे तु तत्र उष्णत्वं केवलं वह्नित्वेन एव तत्र न उत्पद्यते इति वक्तुं न शक्नुमः. तत्तु अधिकदेशव्याप्तिः, अन्यकारणानि अपि भवितुम् अर्हन्ति उष्णत्वस्य उत्पादनार्थम् इति कारणेन इदमेव कारणं वन्नित्वमेव कारणम् इति तत्र कार्यकारणं
विपरीतत्वेन. महोदय, इत्युक्ते वन्नित्वं प्रति औष्ण्यं कारणं वा इति आयाति खलु. न वक्तुं शक्नुमः वह्निः उष्णः वन्नित्वात् इत्यस्मात् कः अर्थः? वह्निः उष्णः वन्नित्वात् इत्युक्ते वन्नित्वं कारणं
सत्यं
कं प्रति?
उष्णत्वस्य प्रति.
वन्नित्वम् एकनिमिषं, वन्नित्वं प्रति औष्ण्यं कारणं वा इति. इत्युक्ते धूमं प्रति यथा वह्निः कारणं तथा वन्नित्वं प्रति औष्ण्यं कारणं वा इति प्रश्नः.
तदेव अहम् उक्तवान्, तत्र यदा इदानीं कार्यकारणभावे यदा कार्यम् अत्र उष्णत्वम् औष्णत्वम् अस्ति, कारणं वह्नित्वम् अस्ति, तथा वह्नित्वस्य
न विपरीतत्वेन. महोदय, वह्निः उष्णः वह्नित्वात् इत्युक्ते वह्नित्वं यदि द्रष्टुं शक्नुमः, द्रष्टुं न शक्नुमः, परन्तु वह्नित्वम् इति प्रमाणं स्वीकृत्य किमपि कारणम् अस्ति इति अनुमितिः जायते खलु, यथा धूमं दृष्ट्वा किमपि कारणं भवेत् इति अनुमितिः जायते खलु.
वन्यत्वं दृष्ट्वा किमपि वन्यत्वस्य कारणम् इति भवती वदति वा?
आम्, अस्मिन् वाक्ये तथैव अस्ति खलु. वह्निः उष्णः वन्यत्वात्, शैली तु समाना एव, पर्वतः वन्यमान् धूमात्. केवलं वह्निः उष्णः वन्यत्वात् इति स्वीकुर्मश्चेत् वन्यत्वम् इति प्रमाणं किमपि दृष्ट्वा तस्य कारणं भवेत् इति अनुमितिः जायते, अतः वह्निः उष्णः इति अनुमितिः भवति.
महोदय, एवमपि वक्तुं शक्नुमः खलु, तत्र पर्वतः वह्निमान् धूमात् इति वाक्ये वह्निः इति व्यापकः, धूमः इति व्याप्यः इति वयं दृष्टवन्तः, अपि च वह्निः इति कारणं, धूमः इति कार्यम् इति, इत्युक्ते व्याप्यः कार्यं भवति, व्यापकः कारणं भवति. सत्यम्. अस्मिन् वाक्ये इत्युक्ते वह्निः उष्णः वह्नित्वात् इति वाक्ये वह्नित्वम् इति व्याप्यः उष्णम् उष्णत्वम् अथवा औष्ण्यम् इति व्यापकः, यतोहि उष्णत्वम् इति अधिकदेशवृत्तिः, तदर्थं तद् व्यापकः. वन्यत्वम् इति न्यूनदेशवृत्तिः, तदर्थं तद् व्याप्यः इति वयं चर्चितवन्तः. तर्हि यथा पूर्वस्मिन् उदाहरणे व्याप्यः कार्यं व्याप्यः कारणम् इति अभवत्, तद्वत् अत्रापि वक्तुं शक्नुमः वा, व्याप्यः कार्यं व्यापकः कारणम् इत्युक्ते वन्यत्वं कार्यम्, उष्णत्वम् अथवा औष्ण्यं कारणम् इति, तथा तत्र अत्रापि कार्य यथा पर्वतः वह्निमान् धूमात् इति वाक्ये कार्यकारणभावः दृश्यते, तद्वत् अत्रापि दृश्यते वा इति इदानीं चर्चा.
न, तत्र तथा वक्तुं न शक्नुमः. तत्र केवलं व्याप्यव्यापकभावः एव अस्ति, परन्तु कार्यकारणभावः नास्ति तस्मिन्.
तदेव समस्या खलु. स्पष्टं वा?
परन्तु अहं चिन्तितवान्, परन्तु यद्यपि अस्मिन् धूम इदानीम् औष्णत्वं व्यापकः, वह्नित्वं व्याप्यः, अतः तत्र अन्वयसहचारे तु यत्र वह्नित्वम् अस्ति तत्र औष्णत्वम् अस्ति इति वक्तुं न शक्नुमः वा? तत्तु वक्तुं शक्नुमः, परन्तु व्यतिरेहसहचारे तु तत्र यत्र औष्णत्व अभावः अस्ति तत्र वन्यत्व अभावः अस्ति इत्येव तत्र विपरीत्या एव वक्तुं शक्नुमः, परन्तु यत् इति वा तत्र तथा तस्मात् कारणात् तत्र कार्यकारणभावः न सिद्ध्यति इति स्वीकर्तुं न शक्नुमः वा?
तस्मात् न, परन्तु केवलम् अर्थं दृष्ट्वा, इत्युक्ते यथा अखिला भगिन्या उक्तं, यत्र यत्र कार्यं तत्र तत्र कारणम् इति भवति अन्वयसहचारेण. व्यतिरेकेन यत्र यत्र कारणाभावः तत्र तत्र कार्याभावः इति अस्ति. तदपि स्वीकरणेन कार्यं किं कारणं किं, यत्र यत्र कारणाभावः इति अस्ति, इत्युक्ते औष्ण्यं कारणं खलु, कं प्रति, कार्यं प्रति, इत्युक्ते वन्यत्वं प्रति. तत्तु सत्यं वा, वन्यत्वं प्रति औष्ण्यं कारणं भवति वा इति प्रश्नः.
तदेव अहं विपरीत्या उक्तवान्, तत्र यत् वयं कार्यम् इति स्वीकृतवन्तः, इदानीं तत् कारणम् इति परिवर्तनं जातं, तत्तु व्यतिरेकसहचारे तथा भवितुं नार्हति, ततः तद् कत्र कार्यकारणभावः, इदमेव कार्यम् इदं कारणम् इति निश्चयेन तत्र अन्वयव्यतिरेकसहचाराभ्यां निरूपकं न भवति इति अहं तदेव तत्र अहं यद् भवती वदति तदेव अहमपि प्रायः उक्तवान्, परन्तु प्रायः तस्य सम्यक्तया न उक्तं प्रायः चिन्तयति.
क्षम्यतां भगिनि, किञ्चित् अत्र तथा वस्तुतः तथा नास्ति महोदय, यतोहि पर्वतः वह्निमान् धूमात् इत्येव प्रथमं स्वीकुर्मः. तत्र अन्वयसहचारः अपि भवति, व्यतिरेकसहचारः अपि भवति. तर्हि तत्र इत्युक्ते तत्र अन्वयसहचारेण यत्र यत्र धूमः तत्र तत्र वह्निः इति आयाति, व्यतिरेकसहचारेण यत्र यत्र वह्नित्वाभावः क्षम्यतां वह्न्यभावः तत्र तत्र धूमाभावः इति आगच्छति. तत्र कार्यकारणस्य वैपरीत्यं न जातं, तदेव तत्र इत्युक्ते व्यतिरेकसहचारे अपि कार्यमस्ति धूमः, कारणमस्ति वह्निः. अन्वयसहचारे अपि प्रथम उदाहरणे तद्वदेव, द्वितीय उदाहरणे अपि इत्युक्ते द्वितीय उदाहरणे अपि अन्वयसहचारं स्वीकुर्मः चेत् यत्र यत्र वह्नित्वं तत्र तत्र औष्ण्यम् इति भवति, व्यतिरेकसहचारेण यत्र यत्र उष्णत्वाभावः तत्र तत्र वह्नित्वाभावः इति आयाति. इदानीम् अत्र प्रश्नः अन्वयसहचारः वा भवतु व्यतिरेकसहचारः वा भवतु, तत्र कार्यकारणभावः भवति वा इत्येव. कार्यं तु सर्व सहचाराभ्यां तत्र अथवा क्षम्यताम् उभयोः सहचारयोः अपि तत्र कार्यं तु वह्नित्वमेव, कारणं तु औष्ण्यमेव. यत्किम् अन्वयसहचारं स्वीकुर्मः चेदपि व्यतिरेकसहचारं स्वीकुर्मः चेदपि इत्युक्ते कार्यकारणस्य वैपरीत्यं न भवति.
महोदय
अहं किञ्चित् चिन्तयामि तत्र प्रायः तत्र
सर्वदा एतत्तु सत्यं, कार्यम् अस्ति चेत् कारणं भवेत्, कारणाभावः सति कार्याभावः, सर्वदा एतत्तु सत्यम्. कार्यं दृश्यते चेत् कारणं तस्य अवश्यं भवेत्, यदि कारणाभावः अस्ति तर्हि कार्याभावः तु अवश्यं भवेत्. केवलं द्वितीये उदाहरणे अभावस्य रूपेण अनुमितिः जायते, परन्तु सर्वदा अत्र तु निश्चितः अस्ति किं कार्यं किं कारणम् इति यदि अस्ति चेत्, परन्तु अत्र कार्यकारणभावः न दृश्यते एव, यतोहि तत्तु अनर्थकः भवति खलु. वह्नित्वं प्रति औष्ण्यं कारणं न भवति इति अनर्थकः अस्ति. सन्देहः अस्ति वा?
सन्देहः नास्ति, परन्तु तस्य अन्वयसहचारः पुनः एकवारं वदतु द्वितीय उदाहरणस्य.
यत्र यत्र वह्नित्वं, यत्र यत्र किं शैली किं का, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः.
व्यापकः
अत्र यत्र यत्र वह्नित्वं, वह्नित्वम् इति लघुदेश अस्ति खलु, यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम्. यत्र यत्र कार्यं तत्र तत्र कारणं, तस्य परिवर्तनं न भवति एव. यत्र कार्यं तत्र कारणम् इत्युक्ते अत्र कार्यं तु वह्नित्वं, कारणम् उष्णत्वम् इति आयाति, परन्तु तत्तु अनर्थकः. इत्युक्ते उष्णत्वं प्रति वह्नित्वं कदापि कारणं न भवति इति कृत्वा केवलं व्याप्यव्यापकः भावः सिद्ध्यते, न तु कार्यकारणभावः. तदेव अस्माकं किं निगमनं खलु उदाहरणाभ्याम्. इत्युक्ते यत्र यत्र कार्यकारणभावः तत्र तत्र व्याप्यव्यापकभावः भवति. अस्मिन् अस्माकं पूर्वस्मिन् उदाहरणे गन्धः पृथिवी वा धूमः वह्निः इति स्वीकरणेन तत्र यत्र यत्र कार्यकारणभावः तत्र तत्र व्याप्यव्यापकभावः. किमर्थं कार्यकारणभावः सर्वत्र न दृश्यते, अतः तत्तु व्याप्यः अस्ति, लघुदेशे एव वर्तते, परन्तु यत्र यत्र व्याप्यव्यापकभावः तत्र तत्र कार्यकारणभावः अस्ति इति न. किम् अस्ति चिन्तनम् रामप्रिया भगिनी? कार्यकारणभावः व्याप्यव्यापकभावयोः कः सम्बन्धः?
सम्बन्धः तु सम्बन्धः तु नास्ति किल.
इत्युक्ते किं सर्वदा अस्ति, किं कुत्रचिदेव अस्ति इति वक्तुं शक्नुमः वा?
कार्यकारणभावः कुत्रचित् अस्ति इति वयम् इदानीमेव दृष्टवन्तः, कुत्रचित् अस्ति कुत्रचित् नास्ति इति. व्याप्यव्यापकभावः सर्वदा अस्ति.
सर्वदा इत्युक्ते यत्र व्याप्यव्यापकभावः अस्ति तत्र सर्वत्र कार्यकारणभावः अस्ति वा?
न, न.
किमर्थम्?
किमर्थम् इत्युक्ते यदा वयम् इदानीमेव दृष्टवन्तः एतद् अस्मिन् स्थले तु कार्यकारणभावः नास्ति, केवलं व्याप्यव्यापकभावः एव अस्ति.
तर्हि विपरीतत्वेन यत्र व्याप्यव्यापकः भावः अस्ति तत्र किं भवति?
यत्र व्याप्यव्यापकभावः अस्ति तत्र कार्यकारणभावः भवितुमपि अर्हति, न भवितुमपि अर्हति.
समीचीनं भगिनि. स्पष्टः वा इदानीं?
स्पष्टं.
वेङ्कटेश महोदय?
आमां स्पष्टं.
सुनील महोदय?
आमां.
वर्धिनी भगिनि?
आं भगिनि.
वक्तुं शक्नोति वा? इत्युक्ते अत्र व्याप्यः कः, व्यापकः कः?
व्याप्यः
अत्र कार्यकारणभावः अपि तु व्याप्यव्यापकभावः इति हेतुः साध्यः इति स्वीकुर्मश्चेत् वाक्यं किं भवति? व्याप्यव्यापकभावः तयोः.
वह्निः उष्णः वह्नित्वात् अनुमानवाक्यमस्ति. वह्निः हेतुः अत्र व्याप्यः
वह्नित्वं हेतुः. हा,
उष्णः व्यापकः अथवा साध्यः. अन्वयसहचारे वह्निः यत्र वह्निः अस्ति तत्र उष्णः अस्ति.
यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वं.
व्यतिरेकसहचारे वह्नित्वं यत्र यत्र वह्नित्वं नास्ति तत्र उष्णत्वं.
विपरीतत्वेन खलु? यत्र यत्र वन्याभावः तत्र तत्र धूमाभावः तद्वत्. यत्र यत्र उष्णत्वाभावः
तत्र वह्न्यभावः
इति अस्ति. हा, इति व्याप्यव्यापकः भावः तु साध्यते खलु. परन्तु कार्यकारणभावः अस्ति वा?
यत्र तत् व्यतिरेकः सहचारः अस्ति.
भगिनि, अत्र कार्यकारणभावः दृश्यते वा पूर्वस्मिन् उदाहरणवत्?
वह्नि धूमः मध्ये वा?
हा, उष्णः वह्नित्वयोः कार्यकारणभावः अस्ति वा?
Uh, कार्यकारणभावः उष्णत्वात्
वह्निः उष्णः वह्नित्वात् वह्नित्वम् इति धर्मं स्वीकृत्य तस्य कारणम् औष्ण्ये भवेत् इति वक्तुं शक्नुमः वा?
न भवति,
न भवति. अतः कार्यकारणभावः न दृश्यते खलु
भगिनी?
न दृश्यते. अतः अस्माकं निगमनं किम्? उदाहरणाभ्यां किम् अवगम्यते? एकस्मिन् कार्यकारणभावः अस्ति, अपि तु वदतु
कार्यकारणभावः नास्ति. औष्णत्वं प्रति वह्नित्वं प्रति औष्ण्यं कारणं न भवति.
समीचीनम्.
अत्र कार्यकारणभावः नास्ति.
सुनील् महोदय वदति वा किम् अवगम्यते?
अत्र द्वितीय उदाहरणे
न केवलम् अस्माकम् अन्तिमं किम् अवगमनं किम्?
अत्र कार्यकारणभावः नास्ति इत्युक्ते कार्यमस्ति वन्यत्वं.
न उदाहरणं त्यजतु कृपया. केवलम् अवगमनं किं? कार्यकारणभावः अपि तु व्याप्यव्यापकः भावः. सामान्यतया किं वदामः?
अनुमितिप्रसङ्गे व्याप्यव्यापकभावः एव सर्वदा अस्ति, कार्यकारणभावः सर्वदा नास्ति. विशिष्य व्यतिरेक व्याप्य विषये अत्र कार्यकारणभावः नास्ति एव.
अस्तु, भिन्नरूपेण यत्र यत्र कार्यकारणभावः तत्र तत्र व्याप्यव्यापकः भावः व्याप्यव्यापकभावः अस्ति खलु? परन्तु विपरीतत्वेन न वक्तुं शक्नुमः. इत्युक्ते यत्र यत्र व्याप्यव्यापकभावः तत्र तत्र कार्यकारणभावः अस्ति इति न वक्तुं शक्नुमः. स्पष्टम्?
स्पष्टम्.
इत्युक्ते अत्र अनयोः अत्र व्यापकः व्याप्यव्यापकभावः व्याप्यः अस्ति कार्यकारणभावः. यतोहि कार्यकारणभावः तु लघुदेशे एव वर्तते इति कृत्वा तत् सः व्याप्यः अस्ति. व्यापकः व्याप्यव्यापकभावः इत्युक्ते व्याप्यव्यापकभावः प्रायः अधिकदेशे द्रष्टुं शक्नुमः. अधिकेषु देशेषु द्रष्टुं शक्नुमः. परन्तु कार्यकारणभावः तु लघुदेशेषु एव द्रष्टुं शक्नुमः इति. यतो हि अधिकम् अस्ति. अस्तु, तर्हि किमर्थं पृष्ठसङ्ख्या त्र्यशीतिः तत्र अन्तिमं वाक्यं द्वितीयपरिच्छेदे पठतु मो अखिला भगिनी पठति वा?
एकक्षणं भगिनि. तत्र प्रथमपरिच्छेदस्य अन्तिमवाक्यं वा?
द्वितीयस्य एवं च व्यतिरेकसहचारः इति पदार्थनिरूपणम् इत्यस्मिन् भागे त्र्यशीतितमे पुटे
एवं च पूर्वोक्त अन्वयसहचारः व्यतिरेकसहचारश्च ययोः वर्तते तयोः कार्यकारणभावः निश्चितो भवति.
तर्हि विपरीतत्वेन उक्तम् अत्र खलु? अस्माकं निगमनं यत् आसीत् उदाहरणाभ्यां, तत्तु भिन्नम् अस्ति, सर्वदा कार्यकारणभावः न दृश्यते इति. परन्तु अस्मिन् वाक्ये लेखकेन उक्तम् अस्ति यत् यत्र यत्र अन्वयसहचारः व्यतिरेकसहचारश्च वर्तते तयोः कार्यकारणभावः निश्चितो भवति इति. किमर्थम् इति प्रश्नः. इदानीं कारणस्य लक्षणं पश्येम. अत्र कारणस्य लक्षणवाक्यम् अस्ति यत् अन्यथा सिद्धिशून्यत्वे सति नियतपूर्ववृत्तित्वम्. पुनः वदामि, अन्यथा सिद्धिशून्यत्वे सति नियतपूर्ववृत्तित्वम् इत्युक्ते द्वितीयभागं स्वीकुर्मः. नियतपूर्ववृत्तित्वम् इति, नियत इत्युक्ते अन्वयव्यतिरेकसहचारौ. नियत इत्यनेन अन्वयव्यतिरेकसहचारौ वर्तेते इत्युक्ते तत्र व्याप्यव्यापकभावः अस्ति इति अर्थः नियत इत्यनेन. पूर्ववृत्तित्वम् इत्यनेन निकषत्रयम् अस्ति इति अर्थः. यत् वयं त्रिंशत्तमे पुटे पठितवन्तः, कारणं तु कार्याधिकरणे भवेत्, पूर्वस्मिन् क्षणे भवेत्, कार्योत्पत्तेः पूर्वक्षणे भवेत्, सर्वदा भवेत् इति. इति नियतपूर्ववृत्तित्वम् इत्यनेन अर्थः अस्ति. नियत इत्युक्ते अन्वयव्यतिरेकसहचारौ वर्तेते. यथा प्रथमे उदाहरणे दृष्टं, यत्र यत्र धूमः तत्र तत्र वह्निः. व्यतिरेकसहचारः यत्र यत्र वन्याभावः तत्र तत्र धूमाभावः इति. निकषत्रयमपि अस्ति तत्र, कारणं यत् वह्निः सर्वदा पर्वते अस्ति, धूमोत्पत्तेः पूर्वक्षणे अस्ति इति. त्रयनिकषाः सन्ति तत्र. परन्तु दलद्वयस्य आवश्यकं लक्षणवाक्येन. अन्यथा सिद्धिशून्यत्वे सति नियतपूर्ववृत्तित्वम्. नियतपूर्ववृत्तित्वम् इति प्रथमं दलम् इति चेत्, अन्यथा सिद्धिशून्यत्वम् इति द्वितीयं दलम् अपेक्षते. अन्यथा सिद्धिशून्यत्वम् इत्युक्ते किम् इति पश्याम. अस्तु, उदाहरणं स्वीकुर्मः. वह्निः उष्णः वह्नित्वात् तत्र व्याप्यव्यापकः भावः तु दृष्टः अस्माभिः. यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वं, यत्र यत्र उष्णत्वाभावः तत्र तत्र वह्नित्वाभावः इति दृष्टम् अस्माभिः. परन्तु कार्यकारणभावः तु न आसीत् तत्र. औष्ण्यम् अन्यथा सिद्धं भवति इत्युक्ते अन्यथा शून्यत्वे सति कार्यकारणभावः निर्धार्यते. इत्युक्ते अन्यथा सिद्धिः शून्यत्वे सति इत्युक्ते किम् अर्थः, कः अर्थः अखिला भगिनी?
अन्यथा सिद्धि शून्यत्वम् इत्युक्ते तत्र वयं पूर्वमपि अन्यथा सिद्धि विषये दृष्टवन्तः. इत्युक्ते तत्र घटस्य उदाहरणं स्वीकुर्मः चेत् अत्र घटनिर्माणार्थं कुलालस्य पिता तु अन्यथा सिद्धा इति. इत्युक्ते तत्र कुलालस्य पिता इति यद्यपि सः तत्र कारणस्य निकषाः यद्वयं दृष्टवन्तः तत्सर्वमपि सः प्रायः यद्यपि सः तत्र नियतपूर्ववृत्तित्वम् इति तद्दलं तद्दलेन सह सङ्गच्छते चेतपि अन्यथा कुलालस्य पिता अन्यथा सिद्धः इति कृत्वा तत्र कारणम् इति नास्ति इति वयं पूर्वम् उक्तवन्तः. इत्युक्ते सः तत्र कुलाल् क्षम्यतां घटस्य निर्माणस्य कारणं न न भवति इति कृत्वा तत्र अन्यथा सिद्धः. तर्हि अन्यथा सिद्ध इत्युक्ते कारणम् इति यद्वयं वदामः नियतपूर्ववृत्तित्वम् इत्युक्ते तत्र निकषत्रयं यद्वयं दृष्टवन्तः तद्दलम् अपि पूरणीयं हा पूरणीयम् अपि पूरितं भवेत्. अपि च तत्र अन्यथा सिद्धि सिद्धिशून्यत्वम् इत्यपि दलं तस्य अपि तेन सह अपि सङ्गमनीयं. तर्हि तत्र दलद्वयम् अस्ति दलद्वयमपि पूरणीयं भवति.
यदि दलद्वयं वर्तेते दलद्वयं वर्तते तर्हि कार्यकारणभावः अपि सिद्ध्यति. नो चेत् केवलं व्याप्यव्यापकः भावः व्यापकभावः एव. अन्यत् उदाहरणमपि स्वीकुर्मः घटरूपं कपालरूपम् इति स्वीकुर्मश्चेत् वेङ्कटेशमहोदय किं कस्मिन् कं प्रति कारणं भवति?
कपालरूपं घटरूपं प्रति कारणं भवति.
हा तत्र व्यापक व्याप्यव्यापकः भावः अस्ति वा?
तत्र तु वक्तुं
शक्नुमः वा?
न इति एव चिन्तयामि. तत्र केवलं कार्यकारणभावः एव अत्र अस्ति तत्र.
परन्तु वयं पूर्वं दृष्टवन्तः खलु धूमवह्नि उदाहरणे अपि तु गन्धपृथ्वी उदाहरणे कारणमस्ति कार्यमस्ति चेत् कारणं भवेत् इति खलु. तत् उपयुज्य व्याप्तिज्ञानम् उदेति वा? कार्यमस्ति चेत् कारणं भवेत् तत्तु सत्यं खलु. तर्हि यत्र यत्र कार्यं तत्र तत्र कारणम् इति वक्तुं शक्नुमः वा?
आमां वक्तुं शक्नुमः.
तर्हि किम् अस्ति वाक्यम्?
यत्र यत्र कपालरूपं तत्र तत्र घटरूपम्
एवं यत्र यत्र कार्यम् इति खलु.
यत्र 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 तस्मिन् उदाहरणे अहं चिन्तितवान् यत्र 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 घटरूपं तत्र तत्र कपालरूपम् इति
इति आयाति खलु. हा परन्तु तर्हि कार्यकारणभावः अस्ति अपि तु व्याप्यव्यापकभावः अपि अस्ति खलु.
सत्यं
व्यतिरेकेण अपि वक्तुं शक्नुमः. व्यतिरेकेण किं भवति?
यत्र यत्र
कपालरूपाभावः
कपालरूपाभावः तत्र तत्र घटरूपाभावः
इति. हा तर्हि किञ्चित् परिवर्तयामि. घटरूपम् अस्ति कपाले संख्या अपि अस्ति खलु. एकः कपालः चेत् तत्र कपाले संख्या इति गुणः अस्ति. तर्हि कपालसंख्या घटरूपं तयोः कः सम्बन्धः?
कपालसंख्या घटरूपं तत्र अन्यथा सिद्धिः तत्र
प्रथमं व्याप्यव्यापकः भावः कथं प्रदर्श्यते? यत्र यत्र घटरूपं
यत्र यत्र घटरूपं तत्र तत्र कपालसंख्या
व्यतिरेकेण
यत्र यत्र कपालसंख्याभावः तत्र तत्र घटरूपाभावः.
हा समीचीनं. परन्तु कार्यकारणभावः दृश्यते वा? घटरूपं प्रति कपालसंख्या कारणं वा?
कारणं नास्ति.
हा किमर्थं? लक्षणवाक्यं स्वीकृत्य वदतु. अन्यथा सिद्धिशून्यत्वे सति नियतपूर्ववृत्तित्वं
तत्र कपालसंख्या इति अन्यथा सिद्धिः अस्ति. तत्र कारण कार्यस्य कृते कारणनिकषाः ये सन्ति तत् तस्य आधारेण कपालसंख्या कारणम् इति साक्षात् कारणम् इति भवितुं नार्हति तत्र. यथा कुलालस्य टीका घटनिर्माणे अन्यथा सिद्धिः भवति, तथा एव कपालसङ्ख्या अपि अन्यथा सिद्धिरूपेण तत्र एव वक्तुं शक्नुमः, न तु कारणरूपेण कार्यं प्रति.
हा समीचीनम्. अतः अन्यथा सिद्धि शून्यत्वं नास्ति इत्युक्ते अत्र कपालसङ्ख्या तु अन्यथा सिद्धा भवति खलु. पुनः आकाशः घटः, शुकवन महोदय वदति वा?
हा भगिनि.
आकाशः घटः इति उदाहरणं स्वीकृत्य वदतु कृपया. लक्षणवाक्यं
यद्यपि आकाशः यद्यपि इति नास्ति, आकाशः इति विभुद्रव्यम् अस्ति, नित्यद्रव्यम् अस्ति इत्युक्त्वा तत् सर्वदा कार्याधिकरणे भवत्येव इत्युक्ते तत्र कार्याधिकरणे अस्ति, कार्याधिकरणे सर्वदा अस्ति, अपि च कार्याधिकरणे पूर्वक्षणे आकाशः अस्ति. तथापि आकाशः घटस्य कारणम् इति वयं न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते तत्र आकाशस्य अन्यतासिद्धत्वं घटं प्रति अस्ति इति कृत्वा तत्र अन्यतासिद्धि शून्यत्वं नास्ति इति कृत्वा आकाशः घटं प्रति कारणं न भवति.
समीचीनम्. अतः कार्यकारणभावः न दृश्यते, परन्तु व्याप्यव्यापकभावः दृश्यते, परन्तु कार्यकारणभावः न. अस्तु, तर्हि किमर्थं लेखकेन एतद् उक्तं त्र्यशीतितमे पुटे यत्र कुत्रापि अन्वयव्यतिरेकसहचारौ तत्र तत्र कार्यकारणभावः वर्तते इति? किमर्थम् इति चेत् साधारणतया लोके चिन्तनम् अस्ति यत् यत्र कुत्रापि कार्यकारणभावः तत्र व्याप्यव्यापकभावः वर्तते इति. लोके सर्वे धूमस्य उदाहरणं तु सर्वैः ज्ञातम् अस्ति, परं तत्तु साधारणचिन्तनम् अस्ति, सरलम् उदाहरणमस्ति. परन्तु वह्निः उष्णः उष्णत्वात् इति तु विलक्षण उदाहरणमस्ति. शास्त्रे एव एतादृशम् उदाहरणं भवति. अतः एव सामान्य जनानां चिन्तनम् आदाय एव लेखकेन उक्तं यत् कार्यकारणभावः सर्वत्र भवति, यत्र कुत्रापि व्याप्यव्यापकः भावः वर्तते इति. परन्तु एतत् लक्षणवाक्यं यत् अस्माभिः पठितं, दलद्वयस्य आवश्यकम् इति, एतत् सर्वं शास्त्रीयचिन्तनम्. अतः यत्र कुत्रापि कार्यकारणभावः न दृश्यते तेषां निवारणार्थम् एव दलद्वयस्य आवश्यकता भवति इति शास्त्रीयचिन्तनम्. परन्तु सामान्यचिन्तने तादृशं न इति कृत्वा एव लेखकेन उक्तं यत् कार्यकारणभावः सर्वत्र वर्तते इति. स्पष्टं वा?
हा स्पष्टं भगिनि. तत्र मम चिन्तनम् एकम् अस्ति, यत् भवत्या उक्तं तदेव महोदयेन उक्तं तत् सत्यं तु, किन्तु अत्र किमर्थं प्रायः लेखकेन तादृशम् उक्तम् इति चेत् व्यतिरेकसहचारः त्र्यशीतिः तमपुटे व्यतिरेकसहचारः इति पदार्थनिरूपणम् इति शीर्षकमस्ति किल, तस्य पूर्वम् एकं परिच्छेदः अस्ति, तत्र अन्तिम वाक्यद्वयमहम् इदानीं पठामि. पृथिवीसत्त्वे गन्धः इति पृथिवीगन्धयोः अन्वयमादाय सत्तामादाय विद्यमानत्वमादाय चिन्त्यते इति अयम् अन्वयसहचारः इति व्यवह्रियते. इत्युक्ते अत्र लेखकेन किं कृतम् इत्युक्ते अन्वयसहचारः इत्युक्ते विद्यमानत्वम् इत्येव स्वीकृतं, न तु व्याप्य व्यापकभावः. अपि च सहचारः इत्युक्ते सामानाधिकरण्यम् इति तेन स्वीकृतम्. अतः तेन उक्तं यत्र यत्र अन्वयसहचारः व्यतिरेकसहचारः अस्ति तत्र तत्र कार्यकारणभावः अस्ति इति. किन्तु वयं किं कृतं, अन्वयसहचारः व्यतिरेकसहचारः इत्युक्ते व्याप्यव्यापकभावः एव इति स्वीकृत्वा तत्र अस्माभिः दोषः कल्पितः. किन्तु तत्र पूर्वस्मिन् परिच्छेदे
अस्तु, परन्तु अत्र मम चिन्तनं मम पठनेन एतत् अन्विष्टम् अस्ति यत् व्याप्तिः इत्युक्ते साहचर्यनियमः इति, इत्युक्ते समानादिकरण्ये भवति इति तत्र अर्थः अस्ति. नियमः इत्युक्ते नियतः नियतः स्वभावः इति. अतः व्याप्तिः इत्यनेन तत्र सामानादिकरण्यं तु किम् अस्ति, इम्प्लैड् इति. हेतुसाध्ययोः यः व्याप्तिः अस्ति, सहचारः इत्युक्ते सहचारः इत्युक्ते किम्, एकस्य विद्यमानम् अन्येन सह भवति, एकस्मिन् अधिकरणे भवति इति अर्थः. अन्वय इत्युक्ते यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अन्वयः भवति. आम्, अतः सर्वदा यत्र यत्र व्याप्तिः अस्ति तत्र एकस्मिन् अधिकरणे एव भवति.
आं भगिनि, किन्तु अत्र लेखकः तावदेव स्वीकृत्य अस्मिन् वाक्यं निर्मितम्. किमर्थमिति तत्र साक्षात् दत्तवान् किल, अन्वयम् आदाय इत्युक्ते विद्यमानत्वम् आदाय, सहचारः इत्युक्ते सामानाधिकरण्यम् इति तस्य अर्थः तावदेव स्वीकृत्य अस्मिन् वाक्यम् एतद्वाक्यं निर्मितं तेन. तावदेव यदा व्याप्यव्यापकभावः इति स्वीकुर्मश्चेत् तत्र निश्चयेन एतद्वाक्यं दोष पूर्वं भवति.
द्वितीये परिच्छेदे तदेव उक्तं खलु, पूर्वोक्तः अन्वयसहचारः व्यतिरेकसहचारश्च ययोः वर्तते तयोः कार्यकारणभावः निश्चितः भवति इति, तत्तु दोषपूर्वकं खलु?
नास्ति, पूर्वोक्त अन्वयसहचारः इत्युक्ते पूर्वं किम् उक्तम्, अन्वयः इत्युक्ते विद्यमानत्वं, सहचारः इत्युक्ते सामानाधिकरण्यम् इति चिन्तयामश्चेत् तत्र यत्र यत्र अन्वयसहचारः व्यतिरेकसहचारः अस्ति तत्र तत्र कार्यकारणभावः अस्ति इति. यदि वयं पूर्वोक्तम् अत्र न स्वीकृतं, पूर्वोक्तं तेन केवलं विद्यमानत्वम् अपि च सामानाधिकरणीयमेव उक्तं, वयं किं कृतवन्तः, व्याप्यव्यापकभावः इति स्वीकृत्य तत्र अस्माभिः एव दोषः कल्पितः इति मम चिन्तनम्.
अस्तु,
किन्तु यत् यत् वयम् उक्तवन्तः तत् सत्यमेव, यत्र यत्र व्यापकभावः अपि च कार्यकारणभावयोः मध्ये पुनः व्याप्यभावः अस्ति एव. व्यापकभावः तु अधिक देशवृत्तित्वम् अस्ति, कार्यकारणभावस्य न्यूनदेशवृत्तित्वमेव अस्ति इति कृत्वा तयोः मध्ये व्याप्यव्यापकभावः व्यापकः, कार्यकारणभावः व्याप्यः इति तु सत्यमेव. किन्तु अत्र लेखकस्य दोषः न वक्तव्यम् इति मम चिन्तनं, न तावदेव.
अस्तु अस्तु, अवगतम् इदानीं.
तावदेव भगिनि.
सन्देहः अस्ति वा कस्यचित्? वेङ्कटेश महोदय स्पष्टं वा?
स्पष्टं भगिनि.
अस्तु सुनील महोदय. अस्ति वदनी भगिनि.
अस्तु भगिनि.
अस्तु तर्हि समापयामः वा?
अस्तु भगिनि.
अस्तु धन्यवादः.
धन्यवादः.